सर्वेषां संस्कृतकक्षायां पुनः एकवारं स्वागतम्. आरम्भे अहम् एकं श्लोकं वदामि. कट्वाम्ललवणात्युष्णा तीक्ष्णरूक्षविदाहिनः आहारराजसस्येष्टाः दुःखशोकामयप्रदाः. इत्युक्ते अयं श्लोकः भगवद्गीतायाम् अस्ति. श्लोकस्य कः अर्थः इति पश्यामश्चेत्, अत्र अस्माकं जीवने ये ये आहाराः अतिकटवः, अतिलवणाः इत्युक्ते अतिलवणयुक्ताः, अति आम्लाः, अति उष्णाः, अति तीक्ष्णाः अथवा रूक्षाः, रूक्षाः इत्युक्ते रसहीनपदार्थाः, रसरहितपदार्थाः, अपि च विदाहिनः, एते पदार्थाः ते दुःखम् अपि च अनारोग्यं जनयन्ति. यदि वयं तादृशान् आहारान् खादामश्चेत् वयमपि दुःखम् अनारोग्यं प्राप्नुमः. एतादृशाः आहाराः राजसानां प्रियाः. तेषां खादनेन आरम्भे शरीरस्तरे दुःखं जनयति अथवा पीडां जनयन्ति एते आहाराः. किन्तु तत्पश्चात् तदनन्तरं मानसिकस्तरे शोकम् अथवा उद्विग्नता, उद्वेगः, विषादः, अप्रसन्नता, एतादृशाः भावाः इत्युक्ते दुर्भावान् जनयति. किं जनयति? आहारं जनयति. इत्युक्ते यद् वयं खादामः तस्य विषये किञ्चित् अस्माभिः किं खादामः तस्मिन् विषये किञ्चित् अस्माभिः अवगन्तव्यम्. एतादृशान् पदार्थान् पुनः पुनः खादामश्चेत् तदा दुःखशोक आमयप्रदाः एते पदार्थाः. इत्युक्ते आमयः इत्युक्ते रोगः, व्याधिः अथवा रुग्णता इति वदामः. इत्युक्ते अत्र अयं श्लोकः गीतायाम् अस्ति. किन्तु किमर्थं पठितवती इमं श्लोकम्? इत्युक्ते अत्र अस्मिन् श्लोके कानिचन पदानि सन्ति, कटवः, आम्लाः, लवणाः, उष्णाः, तीक्ष्णाः, रूक्षाः एतादृशानि पदानि सन्ति. अस्माकं नूतनविषयः अस्ति रुचिवाचकशब्दाः. अद्यतन अस्माकं नूतनविषयः अस्ति रुचिवाचकशब्दाः. पूर्वस्मिन् सप्ताहे वयं बन्धुवाचकशब्दानां विषये किञ्चित् अधीतवन्तः. पुत्रः, पौत्रः, दौहित्रः, तादृशानि पदानि वयं पठितवन्तः. तत्र अहं करपत्रमपि प्रेषितवती. तस्मिन् करपत्रे प्रायः आहत्य 30 पदानि सन्ति तत्र बन्धुवाचकशब्दाः ते. किन्तु अद्यतन अस्माकं विषयः अस्ति रुचिवाचकशब्दाः. कटुः, मधुरः, आम्लः, लवणः एते सर्वे रुचिवाचकशब्दाः. एते शब्दाः सर्वदा पुल्लिङ्गे एव भवन्ति. नो चेत् यदि विशेषणरूपेण वदामश्चेत् तदा एव, तदानीम् एव विशेष्यस्य रूपं, विशेष्यस्य लिङ्गं स्वीकृत्य तस्य रूपं भवति. नो चेत् साधारणतया रुचिवाचकशब्दाः सर्वदा पुंलिङ्गे भवन्ति इति एकः विषयः. अधुना वयं रुचिवाचकशब्दानां विषये किञ्चित् पठामः. सर्वे एकवारम् अत्र अभ्यासपुस्तकं पश्यन्तु. अभ्यासपुस्तके सर्वेषां पार्श्वे अभ्यासपुस्तकम् अस्ति चेत् तदा अत्र 161 पुटं पश्यन्तु. अत्र कादम्बरी भगिनी 161 पुटम् इत्युक्ते 160 आङ्ग्लभाषायां वदतु. कोऽपि वदतु 161 पुटं पश्यन्तु इति. 61 उत्तमम्. अत्र सर्वे 161 पुटं पश्यन्तु. तत्र रुचिवाचकशब्दाः सन्ति. अत्र इतोपि अत्र शीतल् भगिनी अस्ति, लक्ष्मीभगिनी अस्ति इति भाति.
अस्तु भगिनि,
स्वागतं.
धन्यवादः.
अन्ये के के सन्ति? सर्वेषां पार्श्वे पुस्तकमस्ति वा? रुचिवाचकशब्दाः. अत्र एकषष्टितमं पुटं पश्यन्तु. तत्र 27.1 आभागे रक्तवर्णैः लिखितैः अक्षराणि सन्ति अत्र. कादम्बरी भगिनी, भवती पठतु. अत्र उपरि किं दत्तमस्ति? भगिनी पश्यति वा अभ्यासपुस्तकम्? नो चेत् लक्ष्मी भगिनी, भवती पठतु. अत्र किम् अस्मिन् पुटे?
रुचिवाचकाः शब्दाः. लवणं, लवणस्य रुचिः, लवणः. जम्बीरं, जम्बीरस्य रुचिः, आम्लः. चाकलेहः, चाकलेहस्य रुचिः, मधुरः. मरीचिका, मरीचिकायाः रुचिः, कटुः. कारवेलम्, कारवेलस्य रुचिः, तिक्तः. आमलकम्, आमलकस्य रुचिः, कषायः.
उत्तमम्, उत्तमं भगिनि. अत्र उपरि अत्र शीर्षिकां पश्यतु, रुचिवाचकाः शब्दाः इति पदद्वयम् अस्ति. अत्र शब्दाः इति पदस्य वचनं किम्?
बहुवचन,
बहुवचनं. एकवचनरूपं किम्?
शब्दः,
शब्दः. तस्य लिङ्गं किम्?
पुल्लिङ्गः.
पुंलिङ्गशब्दः. यदि यदा वयं शब्दः इति वदामश्चेत् शब्दः इति पदं पुंलिङ्गपदं, किन्तु पदम् इति पदं नपुंसकलिङ्गपदं. भवती कथं ज्ञातवती अत्र शब्दः इति पदं पुंलिङ्गपदम् इति कथं ज्ञातवती?
शब्दः, शब्दौ, शब्दाः
इत्युक्ते आरम्भिकस्तरे यदि पदस्य अन्ते विसर्गः अस्ति चेत् साधारणतया पुंलिङ्गशब्दः इति वदामः, किन्तु सर्वदा तथा भवति इति न वक्तुं शक्नुमः. साधारणतया पदस्य अन्ते विसर्गः अस्ति चेत् पुंलिङ्गपदं भवति. अत्र शब्दाः इति पदमस्ति. शब्दाः कीदृशाः शब्दाः?
रुचिवाचकाः शब्दाः.
उत्तमम्, उत्तमम्. रुचिवाचकाः शब्दाः. अत्र पश्यतु, रुचिवाचकाः तत्र समस्तपदमस्ति, काम्पौण्ड् वर्ड्. रुचिवाचकाः शब्दाः अत्र व्यस्तरूपेण पृथक् पृथक् कृत्वा लिखितमस्ति, किन्तु यदि वयं मिलित्वा लेखितुमिच्छामश्चेत् रुचिवाचकशब्दाः इति एकमेव पदं रचयितुं शक्नुमः. किन्तु अत्र वयं प्रारम्भस्तरीयविद्यार्थिनः, छात्राः इति कृत्वा अत्र पृथक् कृत्वा पदं लिखितमस्ति, किन्तु मिलित्वा लेखितुमिच्छामश्चेत् रुचिवाचकशब्दाः इति भवति. अपि च अस्मिन् पुटे कानि कानि पदानि नपुंसकलिङ्गपदानि?
लवणः स्पुल्लिङ्ग,
पुंलिङ्गः इत्युक्ते अत्र लवणं, जम्बीरं, कारवेल्लम्, आमलकम् एतानि पदानि नपुंसकलिङ्गपदानि. पुंलिङ्गपदं किम्?
लवणः, आम्लः, आम्लः, मधुरः, मधुरः,
कटुः,
कटुः, तिक्तः,
कषायः,
कषायः,
अपि च चाकलेहः. एतानि पदानि एतानि पदानि पुंलिङ्गपदानि. अत्र एकं पदमस्ति मरीचिका, तस्य लिङ्गं किं?
स्त्रीलिङ्ग.
स्त्रीलिङ्गपदम् उत्तमम्. इत्युक्ते अत्र साधारणतया रुचिवाचकशब्दाः पुंलिङ्गशब्दाः, यथा भवती पठितवती लवणः, आम्लः, मधुरः, कटुः, तिक्तः, कट कषायः. अपि च रुचिः इति पदमस्ति. रुचिः इति पदं भवती जानाति वा? लिङ्गं किं? कोऽपि वदति वा रुचिशब्दस्य लिङ्गं? रुचिशब्दः, रुचिशब्दः स्त्रीलिङ्गम्. उत्तमं. रुचिशब्दः स्त्रीलिङ्गशब्दः. तदर्थमेव कादम्बरी भगिनी एकवारं वदतु प्रथमाविभक्त्यन्तरूपाणि वदतु अत्र रुचिशब्दस्य. मुनिशब्दवत् क्षम्यतां, मतिशब्दवत्. कोऽपि वदति वा? भवती वक्तुं शक्नोति वा? इत्युक्ते रुचिः, रुची, रुचयः. रुचिः वदतु महोदय.
रुचि, रुच्यौ, रुच्यग. रुचिं, रुच्यौ, रुचिः, रुचिः, रुच्या, रुचिभ्यां, रुचिभिः. रुच्यौ, रुचिभ्यां, रुचिभ्यग. रुच्याग, रुचिभ्यां, रुचिभ्यग. रुच्याग, रुच्यौ, रुच्योः, रुचीनां. रुच्यां
महोदय, महोदय अत्र पश्यतु, अत्र रुचिशब्दः मतिशब्दवत्. किन्तु मतिशब्दवत् किन्तु नदीशब्दस्य रूपाणि भिन्नानि, मतिशब्दस्य रूपाणि भिन्नानि. नदी, नद्यौ, नद्यः इति वदामः, किन्तु अत्र रुचिः, रुचिः, रुचयः तादृशरीत्या रूपाणि भवन्ति. भवन्तः सर्वे मतिशब्दं पश्यन्तु, अनन्तरं तदनन्तरं कक्षायाः अनन्तरं मतिशब्दवत् रूपाणि भवन्ति अत्र रुचिशब्दः. अत्र वाचक इति पदमस्ति. वाचक तत्र एकः प्रत्ययः अस्ति, णवुल् प्रत्ययः इति वदामः, परन्तु तस्मिन् विषये चिन्ता मास्तु. अत्र एकवारं लक्ष्मी भगिनी भवती एव अत्र पश्यतु, चिन्तनं कुर्मः. लवणस्य रुचिः का?
लवणः.
लवणः, लवणः इत्युक्ते आङ्ग्लभाषायां
साल्ट्.
साल्ट् उत्तमं. अपि च जम्बीरस्य रुचिः का?
साल्ट्.
जम्बीरं, जम्बीरम् इत्युक्ते
गूस्बेरी आर् समथिङ्ग्.
जम्बीरम् इत्युक्ते लेमन्.
लेमन्, ओके.
जम्बीरस्य रुचिः आम्लः. तस्य अन्यनाम अस्ति निम्बूफलम्. निम्बूफलम् इति वदामः संस्कृतभाषायां. जम्बीरम् इत्युक्ते लेमन्. जम्बीरस्य रुचिः का? आम्लः.
आम्लः,
उत्तमं. चाकले, चाकलेहस्य रुचिः का?
मधुरः.
मधुरः. मरीचिका, मरीचिका इत्युक्ते
चिल्लि.
चिल्लि, हाट् चिल्लि, हाट् पेपर्, हाट् पेपर्, हाट् पेपर्. तस्य मरीचिका इत्युक्ते हाट् पेपर्. मरीचिकायाः रुचिः कटुः. अत्र पश्यतु, लवणस्य, जम्बीरस्य, चाकलेहस्य इति एतानि पदानि दत्तानि. तत्र विभक्तिः का?
षष्टिविभक्तिः.
उत्तमं. वचनं?
एकवचनं.
सुन्दरम्. अपि लिङ्गं किं? लिङ्गं किं? तत्र पुंलिङ्गे अपि च नपुंसकलिङ्गे अपि रूपाणि समानानि. लवणम् इत्यस्य लवणस्य भवति, चाकलेहः इति वदामश्चेत् चाकलेहस्य इति भवति, किन्तु अत्र मरीचिकायाः इति दत्तमस्ति. तत्र विभक्तिः का?
स्त्रीलिङ्ग, बहुवचन
स्त्रीलिङ्गरूपम् एकवचनं स्त्रीलिङ्ग एकवचनं किन्तु षष्टिविभक्तिः एव उत्तमम् इत्युक्ते मरीचिकायाः रुचिः कटुः कटुः इत्युक्ते किम् कटुः इत्युक्ते किं वदामः आङ्ग्लभाषायां बिट्टर् बिट्टर् नास्ति बिट्टर् इत्युक्ते अत्र तिक्तः इति दत्तमस्ति कटुः इत्युक्ते हाट् अण्ड् स्पैसि इति वदामः हाट् पेपर् कथं हाट् पेपर् इति वदामश्चेत् मरीचिका मरीचिकायाः रुचिः कटुः हाट् अण्ड् स्पैसि टु ईट् अनन्तरं कारवेलं कारवेलस्य रुचिः तिक्तः कारवेलम् इत्युक्ते करेला बिटर् गोड् अतः कारवेलस्य रुचिः तिक्तः अपि च अन्तिमं वाक्यं दत्तमस्ति आमलकस्य रुचिः कषायः कषायः इत्युक्ते वयं जानीमः कति रुचयः सन्ति आहारे कति सन्ति कोऽपि वदति वा
आम्लः
कति 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 सन्ति रुचयः षड् रुचयः इति वदामः षड् रुचयः के इत्युक्ते लवणः आम्लः मधुरः कटुः तिक्तः कषायः तादृशरीत्या षट् सन्ति रुचयः उत्तमं धन्यवादः भगिनी अनन्तरम् अत्र अग्रिमे पुटे अन्यः अभ्यासः अस्ति अत्र साईकृष्णमहोदय भवान् पठति वा अत्र अग्रिमे पुटे किमस्ति
एतानि वाक्यानि पठतु अशुद्धानि वाक्यानि शुद्धानि करोतु यथा
अत्र अत्र एकवारं वदतु महोदय एतानि वाक्यानि इति पदद्वयमस्ति तत्र लिङ्गं किं वचनं किं विभक्तिः का
बहुवचनं नपुंसकलिङ्गं
नपुंसकलिङ्गम् एकवचने वदामश्चेत् कथं वक्तव्यम्
एतं वाक्यम्
एतत् वाक्यं पठतु
एतत् वाक्यं पठतु
अत्र विभक्तिः का
विभक्तिः एतन् प्रथमा
प्रथमा न महोदय अत्र द्वितीयविभक्ति किमर्थम् इत्युक्ते अत्र पठिति धातुः सकर्मकधातुः यद्यपि नपुंसकलिङ्गपदमिति कृत्वा अत्र प्रथमाविभक्तौ द्वितीयाविभक्तौ रूपाणि समानानि एव एतानि वाक्यानि प्रथमाविभक्तौ एतानि वाक्यानि एव द्वितीयाविभक्तौ अपि एतानि वाक्यानि एव भवति किन्तु अत्र द्वितीयाविभक्तौ अस्ति वाक्यानि पठतु तत्र द्वितीयाविभक्ति बहुवचनरूपं दत्तमस्ति अशुद्धानि वाक्यानि शुद्धानि करोतु अत्र अशुद्धानि शुद्धानि इति पदमस्ति तत्र तयोर्मध्ये सम्बन्धः अस्ति वा शुद्धानि अशुद्धानि तत्र शुद्धानि इत्युक्ते अशुद्धानि अशुद्धानि इति पदं विरुद्धार्थकपदम् आपोजिट् वर्ड् शुद्धानि इति पदस्य विरुद्धार्थकशब्दः एव अशुद्धानि इति पदमस्ति तत्र आ इति पदमस्ति आ इति पदम् उपसर्गः नास्ति संस्कृतभाषायां द्वाविंशति उपसर्गाः सन्ति, किन्तु तेषु अन्यतमम् अन्यतमः आ इति तत्र नास्ति. आ इति यस्य कस्यापि पदात् पूर्वं यस्मिन् कस्मिन्नपि पदे तत्र आरम्भे अकारः अस्ति चेत् तत्र किं वदामः इत्युक्ते नञ् तत्पुरुषसमासः इति वदामः. इत्युक्ते आ इति योजनेन तत्र विरुद्धार्थकशब्दः भवति. अतः अत्र शुद्धानि अशुद्धानि इत्युक्ते अत्र चत्वारि वाक्यानि दत्तानि, तानि वाक्यानि शुद्धानि न सन्ति, अशुद्धानि तत्र समीकर्तव्यं, तत्र वाक्येषु दोषाः सन्ति. तदर्थमेव वयं किञ्चित् समीकृत्य अत्र लेखनीयम् इति अस्ति. अत्र कीदृशदोषाः सन्ति इति वयम् अग्रे गत्वा पश्यामः. अत्रापि शुद्धानि करोतु, तत्र विभक्तिः का?
करोतु एकवचनम्.
अत्रापि करोतु इति लकारः कः?
लोट्
लकारः. उत्तमं, लोट् लकारः. शुद्धानि इति पदम् अत्रापि द्वितीयाविभक्तौ बहुवचने अस्ति. किमर्थं चेत् क्रूधातुः सकर्मकधातुः शुद्धानि करोतु. अत्र अशुद्धानि वाक्यानि दत्तानि, किन्तु अस्माकं कार्यं किम्? अशुद्धानि वाक्यानि शुद्धीकरोतु. इत्युक्ते तत्र सम्यक् रीत्या वदतु इति दत्तमस्ति, समीकरोतु इति लिखितमस्ति. अत्र प्रथमं वाक्यं पठतु. यथा
यथा गुडस्य रुचिः कटुः.
सम्यक् वा?
सम्यक्. गुडस्य इत्युक्ते न अवगतम्.
गुडं, गुडः इत्युक्ते तत्र किं वदामः आङ्ग्लभाषायां?
जागरि.
जागरि.
गुडस्य रुचिः कटुः, न गुडस्य रुचिः मधुरः.
मधुरः. तादृशरीत्या एव अत्र समीकृत्य वाक्यानि लेखनीयानि. अग्रिमं करोतु.
मरीचिकायाः रुचिः मधुरः, न मरीचिकायाः रुचिः कटुः.
अत्र पश्यन्तु, अत्र गुडस्य इति पदमस्ति. तत् गुडस्य इति पदं यदि वयं शब्दकोशं पश्यामश्चेत् गुडस्य इति पदस्य विभक्तिः षष्टिविभक्तिः. किन्तु पदं कीदृशं पदं? पुंलिङ्गपदं वा नपुंसकलिङ्गपदं वा? तत्र अस्माभिः ज्ञातव्यं. किन्तु अत्र पदमस्ति गुडः. गुडः इति पुंलिङ्गपदं, किन्तु अत्र गुडस्य इति षष्टिविभक्त्यङ्करूपं. वयं जानीमः नपुंसकलिङ्गपदानां कृते अपि च पुंलिङ्गपदानां कृते तृतीया विभक्ति आरभ्य सप्तमी विभक्तिपर्यन्तं रूपाणि समानानि भवन्ति. किन्तु अत्र पदं गुडः. गुडस्य रुचिः मधुरः. मरीचिकायाः रुचिः का?
मरीचिकायाः रुचिः कटुः.
कटुः. अत्र मधुरः इति दत्तमस्ति, इत्युक्ते तत् सम्यक् नास्ति. सम्यक् नास्ति. अग्रिमं करोतु.
आम्रफलस्य रुचिः तिक्तः.
आम्रफलं, तस्य रुचिः का?
आम्रफलम् इत्युक्ते मेङ्गो. आम्रफलस्य रुचिः मधुरः.
मधुरः, न तु तिक्तः. उत्तमम्. अग्रिमम्.
आवलेहस्य रुचिः मधुरः. आवलेहस्य इत्युक्ते
अत्र किञ्चित् वदामि, अत्र पदमस्ति अवलेहः, अवलेहः इति पदमस्ति. अवलेहस्य रुचिः मधुरः नास्ति. अवलेहस्य रुचिः पूर्वस्मिन् पुटे दत्तमस्ति, अवलेहस्य रुचिः कषायः. अत्र अवलेहः साधारणतया अत्र आङ्ग्लभाषायां किं वदामः, एटिमालजि, एटिमालजि इति वदामः. एटिमालजि इत्युक्ते शब्दनिर्माणशास्त्रम् इति अर्थः संस्कृतभाषायाम्. अत्र पदमस्ति अवलेहः इति पदमस्ति. अत्र अव इति उपसर्गः. अत्र लिह् इति धातुः अस्ति. लिह् धातोः रूपं लेहः. साधारणतया वयं शृणुमः लेह्यं खादतु. लेह्यम् इत्युक्ते लिकिङ्ग्, दट् इस् संथिङ्ग् टु बि दट् वि ईट् वयं बै लिकिङ्ग्. लेह्यम् इति वदामः. लिह् धातोः रूपं लेह्यं. तथा एव अत्र अवलेहः इति पदमस्ति. अव इति उपसर्गः अस्ति. लिह् धातोः रूपं लेहः. अवलेहः इत्युक्ते इट् इस् संथिङ्ग् लैक् चट्नि आर् संथिङ्ग् दट् इस् टु बि फर् लिकिङ्ग्. लेघं वदतु महोदय. न न न, लालिपाप् नास्ति. पिकिल् वा सास् वा
चट्नि,
चट्नि वा पिकिल् अवलेहः इति वदामः. अग्रे गत्वा अग्रे सम्भाषणमस्ति. यदि सम्भाषणं पठामश्चेत् अवगन्तुं शक्नुमः. अत्र पदमस्ति अवलेहः.
किन्तु
कषायः अत्र साधारणतया वयं शृणुमः. वदतु महोदय.
I think it's pickle.
Pickle. Pickle.
कटुः
च्यवनप्राश्यः लेह्यं. तत्पदं तादृशरीत्या एव आगतं. लिह् धातोः रूपं लेह्यं. क्रू धातोः रूपं कार्यं. तथा एव लिह् इति धातोः रूपं लेह्यं. लेह्यम् इत्युक्ते यूजुवलि इस् इट् बै लिकिङ्ग् इट् इस् ए कैण्ड् आफ् फुड् लेह्यं. तथा एव अत्र अवलेहः इति पदमस्ति. अवलेहस्य रुचिः मधुरः नास्ति इति वयं जानीमः. किन्तु तस्य रुचिः का इत्युक्ते कषायः इति वक्तुं शक्नुमः. परन्तु अवलेहं कथं निर्मामः, तदाधारीकृत्य एव तस्य रुचिः भवति. बेस्ड् आन् हौ इट् इस् मेड् वि केन् डिसैड् द टेस्ट् आफ् इट्. लिह् धातुः आस्वादने इति अस्ति. अत्र अवलेहः इति पदमस्ति. अवलेहः मधुरः नास्ति. कषायः. अग्रिमं
तिन्त्रिण्याः रुचिः कटुः.
अत्र पश्यतु महोदय, अत्र उपरि अत्र पश्यतु मरीचिकायाः विभक्तिः का.
मरीचिकायाः षष्ठीविभक्ति.
लिङ्गं किं?
लिङ्गं स्त्रीलिङ्गम्.
उत्तमम्. आम्रफलम्, अत्र आम्रफलम् इत्यस्य षष्ठीरूपं किम्?
अस्य आम्रफलमस्य.
आम्रफलस्य. अपि च अवलेहः, तस्य षष्ठीरूपं किम्?
अवलेहस्य.
उत्तमम्. अत्र तिन्त्रिण्याः इति पदमस्ति. एतत् पदं नूतनं पदं, कोऽपि जानाति वा? तिन्त्रिणी इत्युक्ते किं? कोऽपि वदति वा? नो चेत् अहं वदामि.
टामरिण्ड्.
टामरिण्ड्. तिन्त्रिणी यथा नदी, नदी शब्दवत् तिन्त्रिणी इति पदमस्ति. तिन्त्रिणी वृक्षः इत्युक्ते टामरिण्ड् ट्री. अत्र तिन्त्रिणी इति ईकारान्त स्त्रीलिङ्गपदमस्ति इति कृत्वा तत्र षष्टिविभक्तेः रूपं किं भवति?
तिन्त्रिण्याः.
तिन्त्रिण्याः इति भवति. अत्र रेफः अस्ति इति कारणतः तिन्त्रिणी तत्र तस्मिन् पदे रकारः अस्ति इति कारणतः अत्र मूर्धन्य णकारः आगतः. तिन्त्रिणी, तिन्त्रिणी इत्युक्ते टामरिण्ड्. तिन्त्रिण्याः रुचिः का?
तिन्त्रिण्याः रुचिः आम्लः. आम्लः,
आम्लः, उत्तमं, तथा एव. इत्युक्ते यदि वयं गृहे अपि पश्यामश्चेत् बहूनि बहवः अन्यपदार्थाः सन्ति, इत्युक्ते आहाराः सन्ति, तेषां रुचिः का, यदि खादनस्य अनन्तरं तस्य रुचिः का इति किञ्चित् पश्यामश्चेत् अवगन्तुं शक्नुमः. भवन्तः सर्वे कक्षायाः अनन्तरं गृहे, भवतां गृहे तत्र कानिचन पदानि, इत्युक्ते अत्र आहारपदार्थान् खादित्वा एतस्य रुचिः का, तस्य रुचिः का इति पश्यन्तु. तादृशरीत्या वयं कानिचन वाक्यानि लेखितुं शक्नुमः. यु केन् ट्रै रैटिङ्ग् सम् सेण्टेन्सस् आफ्टर् टेस्टिङ्ग् सम् आफ़् द फ़ुड् एट् युवर् होम्. तादृशरीत्या कुर्मः चेत् इतोपि सम्यक् अभ्यासः भवति. उत्तमं, धन्यवादः महोदय. सुचित्रा भगिनी, अत्र 27.2 भागे अत्र मातात्रयोः सम्भाषणमस्ति. सुचित्रा भगिनी माता, अपि च कादम्बरी भगिनी पुत्रः. एकवारं सम्भाषणं पठामः. कादम्बरी भगिनी आरम्भं करोतु.
अम्ब, किम् अद्य क्वतीतां बहु कटु अस्ति?
तर्हि क्वतितं मा स्वीकरोतु, तक्रं परिवेशयामि.
तक्रं बहु आम्लम् अस्ति अम्ब.
भवान् तु केवलं मधुरम् इच्छति, एतत् मोदकं खादतु, बहु मधुरम् अस्ति.
सत्यम् अम्ब, एतत् मधुरम् अस्ति.
कारवेलस्य व्यञ्जनम् अस्ति, किञ्चित् परिवेशयामि वा?
मास्तु अम्ब, कारवेलं तिक्तं भवति, अहं तिक्तं न इच्छामि, किञ्चित् लवणं परिवेशयतु.
स्वीकरोतु, आमलकस्य अवलेहं किञ्चित् परिवेशयामि वा?
अस्तु, परिवेशयतु अम्ब. आमलकस्य रुचिः कषायः अस्ति.
तर्हि जम्बीरस्य अवलेहं स्वीकरोतु.
सतु अम्बलः, सतु आम्लः अस्ति अम्ब.
भवान् तु मधुरम् एकमेव इच्छति, परन्तु शरीरस्य वर्धनार्थं सर्वविधाः रुचयः अपि आवश्यकाः एव.
आवश्यकाः एव इत्युक्ते अत्र एकं सम्भाषणमस्ति, मातापुत्रयोः सम्भाषणम्. अत्र पुत्रः वदति, अम्ब किम् अद्य क्वथितं बहु कटु अस्ति इति पुत्रः वदति. अत्र कादम्बरी भगिनी, अम्ब तस्य रूपं किम्? किञ्चित् वदतु. अम्ब. सुचित्रा भगिनी भवती वदतु.
सम्बोधनरूपं.
तत्र प्रथमविभक्त्यन्तरूपं किम्?
अम्ब.
अम्बा इत्युक्ते लता शब्दवत्. अत्र पुत्रः मातरम् उद्दिश्य वदति, अम्ब अद्य किमर्थं क्वथितं बहुकटु अस्ति? क्वथितम् इति पदमस्ति. इत्युक्ते अत्र सः आश्चर्यं प्रकटीकरोति. साधारणतया माता सम्यक् रीत्या पाकं करोति. प्रत्येकस्मिन् गृहे तादृशरीत्या एव भवति. अत्र माता सम्यक् रीत्या एव पाकं करोति साधारणतया, किन्तु अद्य किं कृतवती? सम्यक् न कृतवती इति भाति. अतः पुत्रः वदति, माता किमर्थम् अद्य क्वथितं बहु कटु अस्ति? इत्युक्ते किं भगिनि? अत्र अर्थः कः?
क्वथितं साम्बार् कटुः, स्पैसि.
उत्तमम्. इत्युक्ते कटुः इत्युक्ते हाट् अण्ड् स्पैसि, किन्तु अत्र क्वथितम् इति पदमस्ति. क्वथितम् इत्युक्ते संथिङ्ग् दट् इस् बोयिल्ड्. इट् केन् बि एनिथिङ्ग्. अत्र क्वथित इति पदं कृताप्रत्ययान्तरूपम् इति वदामः. क्वथयति इति लट्लकाररूपं. क्वथनम् इत्युक्ते बाय्लिङ्ग्, ल्युडन्तरूपं क्वथनं, लट्लकाररूपं क्वथयति. किन्तु अत्र क्वथितं दट् इस् संथिङ्ग् आलरेडि बाय्ल्ड्. क्वथति क्वथयति इत्युक्ते संथिङ्ग् बाय्लिङ्ग् इति अर्थः. साधारणतया किं वदामः साम्बार् इति वदामश्चेत् तत्र क्वथितं बहु कटु अस्ति. साधारण पूर्वस्मिन् पुटे वयं किं दृष्टवन्तः? कटुः, मधुरः, तिक्तः, तादृशानि पदानि दृष्टवन्तः, पुंलिङ्गरूपाणि दृष्टवन्तः. किन्तु अस्मिन् पुटे क्वथितं कटु अस्ति इति दत्तमस्ति. इत्युक्ते अत्र कटु इति पदं नपुंसकलिङ्गे अस्ति. किमर्थम्? कोऽपि वदति वा? क्वथितम् इति पदं नपुंसकलिङ्गे अस्ति इति कृत्वा तस्य विशेषणमस्ति. अतः बहु कटु इति पदमपि नपुंसकलिङ्गे एव दत्तमस्ति. इत्युक्ते यद्यपि रुचिवाचकशब्दाः पुंलिङ्गशब्दाः, किन्तु विशेषणत्वेन उपयोगं कुर्मः चेत् तदा विशेष्यम् अनुसृत्य तस्य लिङ्गपरिवर्तनं भवति. अतः क्वथितम् इति पदस्य विशेषणम् इति कृत्वा अत्र कटु इति दत्तमस्ति. अवगतं वा भगिनि? अग्रिमं वाक्यं, द्वितीयं वाक्यं पठतु.
तर्हि क्वथितं मा स्वीकरोतु, तर्कं परिवेशयामि.
अत्र तदा माता वदति, यदि क्वथितं बहुपटु अस्ति चेत् तदा मा स्वीकरोतु, मा खादतु, अन्यत् खादतु. अत्र अधुना अहं कटु अस्ति इति भवान् उक्तवान्, तदर्थम् अहं तक्रं परिवेशयामि वा? तक्रं वदतु भगिनि, कादम्बरी भगिनी वदतु. बटर् मिल्क्. तक्रं परिवेशयामि वा इति माता वदति. परिवेशयामि इत्युक्ते किम्? उत्तमं. सर्विङ्ग्. तक्रं परिवेशयामि वा इति वदति. बटर् मिल्क् इत्युक्ते तक्रं, किन्तु कर्ड् इति वदामश्चेत् किं वदामः?
दधि.
दधि. दधि. दधि इति इकारान्तपदं, किन्तु नपुंसकलिङ्गपदं. दधि, दधिनी, दधीनि तादृशरूपाणि भवन्ति. अत्र तक्रं, तक्रम् इति बटर् मिल्क्. माता वदति, तक्रं परिवेशयामि वा इति वदति. तदा पुत्रः किं वदति? तक्रं बहु आम्लमस्ति अम्ब. तक्रं बहु आम्लमस्ति इत्युक्ते किं भगिनि? कोऽपि वदतु. अत्र
आम्लं
is very salty.
Bitter?
Salty na mahodaya.
Tangy.
Uttamam. Itukte atra amlam ruchih asti. Atra amlaha iti ruchih asti. Takram ruchih samyak nasti. Takram bahu amlam asti amba. तदर्थं मा परिवेशयतु. अहं न इच्छामि, अहं तक्रं खादितुं न इच्छामि इति सः वदति. अनन्तरं माता वदति, भवान् तु केवलं मधुरमिच्छति. इत्युक्ते सः बालकः सर्वदा मधुरमेव खादितुमिच्छति. अतः सः वदति, भवान् केवलं मधुरमिच्छति, एतत् मोदकं खादतु, बहु मधुरमस्ति इति वदति. तदा पुत्रः किं वदति, वदतु भगिनि.
सत्यम् अम्ब, एतत् मधुरम् अस्ति.
एतत् मधुरम् अस्ति. एतत् इत्युक्ते तत्र एतत् कस्य विशेषणं?
मोदकम्.
मोदकस्य विशेषणम्. एतत् मोदकं मधुरम् अस्ति. सत्यम् अम्ब, सः उक्तवान्. कारवेलस्य व्यञ्जनम् अस्ति, किञ्चित् परिवेशयामि वा इति माता तं पृच्छति. कारवेलस्य व्यञ्जनम् इत्युक्ते किं भगिनि?
षष्ठिविभक्ति व्यञ्जनं, तृतीयविभक्ति, कारवेलस्य बिटर्गार्ड् व्यञ्जनं, सम्पदार्थम्.
बिटर्गार्ड् करी व्यञ्जनं. व्यञ्जनम् इत्युक्ते करी इति वदामः. साधारणतया वयं करी मिलित्वा खादामः. कारवेलस्य व्यञ्जनं कृतवती अहं, किञ्चित् परिवेशयामि वा? डु यु वाण्ट् मी टु सर्व् दट् इति माता वदति. मास्तु अम्ब, कारवेल्लं तिक्तं भवति. अत्र पश्यन्तु, मधुरः, यद्यपि रुचिः मधुरः, किन्तु मोदकम् इत्यस्य विशेषणमस्ति इति कृत्वा मधुरम् इति लिखितमस्ति. कारवेलं, कारवेलं तिक्तं भवति. अत्रापि कारवेलम् इति पदस्य विशेषणमस्ति इति कृत्वा अत्र तिक्तं, यद्यपि रुचिः पुंलिङ्गे अस्ति तिक्तः, किन्तु अत्र विशेषणं, विशेषणरूपेण वदामश्चेत् विशेष्यस्य लिङ्गं स्वीकरोति. अतः ईदृशरीत्या लिखितमस्ति अत्र. कारवेलं तिक्तमस्ति इति कारणतः अहं खादितुं न इच्छामि. किञ्चित् लवणं परिवेशयतु इत्युक्ते भगिनी वदतु, लवणम् इत्युक्ते
साल्ट्.
साल्ट् परिवेशयतु. सर्वमे समर् साल्ट् इति वदति. स्वीकरोतु. आमलकस्य अवलेहः किञ्चित् परिवेशयामि वा? अवलेहः इति वयं दृष्टवन्तः. अत्र अवलेहः इति पदम्, अत्र अवलेहः इति पदं वयं जानीमः. अत्र अवलेहं परिवेशयामि वा इति दत्तमस्ति. इत्युक्ते अत्र अवलेहम् इति पदं तस्मिन् वाक्ये कर्मपदमस्ति, अतः अवलेहं परिवेशयामि, आमलकस्य अवलेहः तत्र. केन निर्मितः अवलेहः अत्र, वदतु भगिनि. अवलेहम् इस् मेड् आफ् वाट्? अवलेहः केन निर्मितः?
आमलस्य, आमलफलम्.
आमलकेन निर्मितः अवलेहः. तस्याः गृहे आमलकस्य अवलेहः अस्ति, किञ्चित् आमलकस्य अवलेहं परिवेशयामि वा इति पुत्रं पृच्छति माता. अस्तु, परिवेशयतु. अम्ब, आमलकस्य रुचिः कषायः. कषायः अन्या रुचिः. तर्हि माता वदति, तर्हि जम्बीरस्य अवलेहं स्वीकरोतु. अत्र पश्यन्तु, अवलेहः इत्युक्ते अत्र पिकिल् इत्यस्मिन् अर्थे प्रयुक्तमस्ति पदम्. द वर्ड् अवलेहः इस् यूस्ड् हियर् द कान्टेक्स्ट् इस् पिकल्. अवलेहः इति पदस्य अर्थः अत्र पिक्ल्. यदि भवान् आमलकस्य अवलेहं न इच्छति चेत् न इच्छति तदा जम्बीरस्य अवलेहं स्वीकरोतु इति माता वदति. सा तु आम्लः अस्ति अम्ब, जम्बीरस्य अवलेहः आम्लः, तदर्थम् अहं न इच्छामि. एतावता सः किमिच्छति भगिनि, वदतु.
मधुरं, भवान् मधुरम् एकमेव इच्छति.
इत्युक्ते सः बालकः सर्वदा मधुरमेव खादितुमिच्छति. तदर्थं माता वदति भवान् सर्वदा मधुरमेव एकमेव खादितुमिच्छति, परन्तु सा इतोपि किं वदति?
शरीरस्य वर्धनार्थं सर्वविधाः रुचयः अपि आवश्यकाः एव.
अत्र माता अत्र एकं विषयं वदति, प्रधानविषयः, परन्तु शरीरस्य वर्धनार्थं सर्वविधाः रुचयः अपि आवश्यकाः एव. अत्र रुचयः इति पदमस्ति. कीदृशं पदं भगिनि, वदतु.
रुचयः, सर्वदा रुचयः, बहुवचनं. बहुवचनं सर्वे तृतीयाविभक्ति.
उत्तमम्. इत्युक्ते अत्र रुचिशब्दस्य बहुवचनरूपं दत्तमस्ति. रुचिशब्दस्य बहुवचनं रुचयः. प्रथमाविभक्ति, प्रथमाविभक्ति बहुवचनं. किन्तु अत्र पश्यतु, सर्वविधाः रुचयः आवश्यकाः. अत्र रुचयः इति पदस्य विशेषणं सर्वविधाः अपि च आवश्यकाः. इत्युक्ते विशेषणं पदं किं करोति? विशेष्यस्य वर्णनं करोति. विशेष्यस्य वर्णनं करोति विशेषणम्. अत्र सर्वविधाः इति पदं, तस्य लिङ्गं किं, कोऽपि वदति वा?
पुल्लिङ्गं, बहुवचनं.
पुंलिङ्गं नास्ति भगिनि. किमर्थम् इत्युक्ते अत्र रुचयः इति पदं स्त्रीलिङ्गं, सर्वविधाः. अपि च आवश्यकाः, तस्य लिङ्गं किं?
बहुवचनं स्त्रीलिङ्गं. बहुवचनं स्त्रीलिङ्गम्.
उत्तमम्, उत्तमम्. इत्युक्ते अत्र रुचयः इति पदस्य विशेषणं सर्वविधाः अपि च आवश्यकाः इति पदम्. किन्तु वयं जानीमः अपि इति पदम् अव्ययम्, एव इति पदम् अपि अव्ययम्. अव्ययम् इत्युक्ते तस्य लिङ्गवचनविभक्तिपरिवर्तनं न कदापि भवति. किन्तु माता किं वदति अत्र इत्युक्ते, शरीरस्य वर्धनार्थं सर्वविधाः रुचयः आवश्यकाः, तदर्थं सर्वान् पदार्थान् खादतु. सर्वे पदार्थाः, सर्वे आहारपदार्थाः खादनीयाः. वि नीड् टु ईट् आल् द डिफ्रेण्ट् कैण्ड्स् आफ् फुड्स्. किमर्थम्? किमर्थम् इत्युक्ते शरीरवर्धनार्थं, वर्धनार्थम्. अत्र वर्धनार्थम् इति पदं समस्तपदं. शरीरस्य वर्धनाय सर्वे पदार्थाः, आहारपदार्थाः आवश्यकाः इति माता पुत्रं सूचयति. उत्तमं भगिनि, धन्यवादः. अग्रिमे पुटे अत्र किञ्चित् ध्वनिः अस्ति, किञ्चित् मीट् करोमि. अग्रिमे पुटे अत्र किमस्ति, राजीव् सिङ्ग् महोदय भवान् करोति वा? अत्र अग्रिमे पुटे किमस्ति?
आं भगिनि, एतेषाम् उत्तरं लिखतु.
एकवारं वदतु महोदय, एतेषां रूपं किम्? कोऽपि वदति वा?
एतेषां बहुवचन
सप्तमी नास्ति, षष्टि बहुवचनं.
षष्टि
इत्युक्ते अत्र एतेषाम् इति पदं यद्यपि अत्र एतेषाम् इत्युक्ते केषाम्? एतेषां प्रश्नानाम् इति अत्र अध्याहर्तव्यम्. इत्युक्ते वि नीड् टु ब्रिङ्ग् द वर्ड् प्रश्नः. एतेषाम् इत्युक्ते एतेषां केषाम्? एतेषां प्रश्नानाम् उत्तरं लिखतु.
उत्तरं लिखतु.
यद्यपि अत्र प्रश्नानाम् इति पदं न दत्तमस्ति, किन्तु एतेषां प्रश्नानाम् उत्तरं लिखतु इति अर्थः. षष्टिबहुवचनं उत्तरम् उत्तरम् इति पदम् अपि द्वितीयविभक्तौ अस्ति. उत्तमं. वदतु, भवान् पठतु.
क्वथितं कथम् अस्ति? क्वथितं कटुः अस्ति.
भवान् कथम् उक्तवान् इत्युक्ते अत्र पूर्वं सम्भाषणं दत्तमस्ति. सम्भाषणस्य आधारेण एते प्रश्नाः दत्ताः. बेस्ड् आन् द कान्वर्सेशन्, द प्रीवियस् कान्वर्सेशन्, दीस् क्वश्चन्स् वर् गिवेन्. इत्युक्ते सम्भाषणस्य आधारेण एते प्रश्नाः दत्ताः. अत्र कटुः अस्ति, क्वथितम्. अपि च अग्रिमं करोतु.
तक्रं कथम् अस्ति? तक्रम् आम्लम् अस्ति.
तक्रम् आम्लम् अस्ति. अपि च
बटर् मिल्क् इस्
एसिडिक्. एसिडिक् आम्लम् अस्ति, तक्रं. तदर्थमेव सः खादितुं न इच्छति. अत्र अनन्तरं
किं तिक्तं भवति? कारवेलं तिक्तं भवति.
कारवेलं तिक्तं भवति. भवान् इच्छति वा महोदय कारवेलं?
I like it.
अस्तु अस्तु, उत्तमं. करवेलं सम्यक्
खादनीयं.
सम्यक् भवति. करवेलं यद्यपि तिक्तमस्ति, किन्तु समीचीन आरोग्यवर्धनाय करवेलं खादनीयं. वि शुड् ईट् बिटर् कार्ड्. इट्स् अ वण्डर्फुल् वेजिटेबल्. उत्तमं करोतु.
आम्लकस्य रुचिः का? आम्लकस्य रुचिः कषायः.
अग्रिमं
भवान् किम् इच्छति?
वदतु, भवान् किम् इच्छति?
अहं गुलाब् जामुन् इच्छामि.
इत्युक्ते अत्र रुचेः विषये वदामश्चेत् अहं मधुरम् इच्छामि.
मधुरमिच्छामि.
उत्तमं. भवान् किमिच्छति इति प्रश्नस्य उत्तरं किं भवति?
अहं मधुरम् इच्छामि.
कादम्बरी भगिनी, भवती किमिच्छति वदतु.
अहम् आम्रफलम् इच्छामि.
उत्तमम्. आम्रफलम् इच्छति भवती. उत्तमम्. अग्रिमं करोतु महोदय.
गुडस्य रुचिः का? गुडस्य रुचिः मधुरम्.
मधुरम्. अत्र रुचिः का इति वदामश्चेत् तत्र मधुरः इति वदामः, किमर्थं चेत् तत् रुचिवाचकशब्दाः मधुरः. किन्तु किम् इच्छति इति वदामश्चेत् तत्र इच्छ् धातुः सकर्मकधातुः इति कृत्वा अहं मधुरम् इच्छामि इति वदामः. किन्तु गुडस्य रुचिः का, अत्र का इति पदं किमर्थम्? का इति पदं दत्तमस्ति, का इति पदं किमर्थमस्ति?
का इस् फेमिनैन् हू
वदतु महोदय.
का सा ते
सा ते ताः इति वदामश्चेत्
का स्त्री कः,
का के काः इत्युक्ते स्त्रीलिङ्गे प्रश्नवाचकशब्दः. किं शब्दस्य मकारान्त किं शब्दस्य स्त्रीलिङ्गरूपम् एव का. अपि च अत्र कथम् इति पदमस्ति, वयं पूर्वमेव पठितवन्तः कथम् इत्युक्ते किम्? कथमस्ति भवान्?
कथमस्ति
भवान्? कथमस्ति?
सम्यक् अस्ति.
सम्यक् अस्मि इति वक्तव्यं. जान् महोदय उक्तवान् भवान् कथमस्ति? अहं सम्यक् अस्मि.
अहं सम्यक् अस्मि.
उत्तमं, तथा वक्तव्यम्. उत्तमं महोदय, धन्यवादः. अनन्तरम् इदानीं पर्यन्तं वयं रुचिवाचकशब्दानां विषये किञ्चित् अधीतवन्तः. अधुना वयम् अत्र अस्माकं पार्श्वे एकं सम्भाषणमस्ति, अल्लाउद्दीनस्य दीपः इति एकं सम्भाषणमस्ति. सम्भाषणं न, यद्यपि सम्भाषणरीत्या उक्तमस्ति, किन्तु तत्र एका कथा अस्ति इति भाति. सर्वेषां पार्श्वे तत् करपत्रमस्ति चेत् अधुना कथां पठामः अथवा सम्भाषणं पठामः. सर्वे तत् करपत्रं पुरतः स्थापयन्तु. किं करपत्रम्? अल्लाउद्दीनस्य दीपः.
अल्लाउद्दीनस्य दीपः. अत्र दीपः. Yeah, I see it.
उमाशङ्कर महोदय, भवान् पठति वा? अत्र सम्भाषणं भवतः पार्श्वे अस्ति वा? उमाशङ्कर महोदय,
न भगिनि, मम पार्श्वे करपत्रं नास्ति.
नास्ति, चिन्ता मास्तु. लक्ष्मी भगिनी, भवत्याः पार्श्वे अस्ति वा?
अस्ति भगिनि.
किञ्चित् आरम्भं करोतु. अत्र सम्भाषणं कथमस्ति एकवारम्? अत्र चत्वारः छात्राः दृश्यन्ते, तत्र अल्लाउद्दीनस्य दीपः. अधुना कादम्बरी भगिनी अपि च लक्ष्मी भगिनी सम्भाषणं पठन्तु, एकमेकं वाक्यं स्वीकृत्य. कादम्बरी भगिनी पठति वा? अत्र पठतु, सर्वे शृण्वन्तु सम्भाषणम्.
प्रथम आगच्छन्तु सर्वे, कन्दुकेन क्रीडाम.
भवतु क्रीडाम्.
भवती एव पठतु कादम्बरी भगिनी, भवती एव पठतु.
कन्दुकम् अत्र क्षिप.
तत्र किमर्थ क्षितं? भवतु, अहम् आनयामि.
माम् उन्नयन्तु भवन्तः, अहम् अस्मि अल्लाउद्दीनस्य दीपः.
सर्वे अत्र आगच्छन्तु, अस्मात् कोऽपि ध्वनिः आगच्छति.
अत्र अत्र स्थगयतु भगिनि, अत्र स्थगयतु. किञ्चित् इदानीं पर्यन्तम् अत्र किं किं दत्तमस्ति किञ्चित् पश्यामः. कोऽपि वदति वा अत्र अल्लाउद्दीनस्य दीपः इति पदद्वयमस्ति. अल्लाउद्दीनस्य रूपं किम्?
षष्टिविभक्ति.
षष्टि.
उत्तमम्. कस्य दीपः?
अल्लाउद्दीन.
अल्लाउद्दीनस्य दीपः. वयं वयं पठितवन्तः तत्र चलचित्रमपि आगतं चलचित्रम् आगतम् अल्लाउद्दीनस्य दीपः. अत्र पश्यन्तु चित्रमस्ति. चित्रे किं दृश्यते? चित्रे तत्र चत्वारः बालकाः सन्ति. चत्वारः बालकाः, चत्वारः छात्राः दृश्यन्ते. अत्र आवरणे किं लिखितमस्ति? लक्ष्मी भगिनी वदतु, आवरणे किं लिखितमस्ति? आवरणे इत्युक्ते ब्राकेट्, ब्राकेट्.
केचन छात्राः क्रीडन्तः सन्ति.
उत्तमं. केचन छात्राः क्रीडन्तः सन्ति इत्युक्ते तत्र केचन, केचन इति पदं कदा तस्य उपयोगं कदा कुर्मः? केचन इत्युक्ते यदि वयं न जानीमः तत्र कति छात्राः सन्ति इति वयं न जानीमः तदा केचन इति वदामः. अनिश्चितार्थे, when you actually don't know how many are playing, then you are supposed to say kechana. Kechana chhatraha kridantaha santi. Atra kridantaha iti padam nutanam padam asmakam krute. Kopi vadati va tasya rupam kim? Kopi janati chet vadati.
Panchami, panchami kridantaha. केचन छात्राः क्रीडन्तः सन्ति.
अत्र न भगिनि, अत्र किञ्चित् नूतनं पदम् अस्माकं कृते. क्रीडन् वदतु.
क्रीडन्ति, क्रीडन्त, क्रीडन्त.
अत्र साधारणतया एवं किं शृणुमः? क्रीडति, क्रीडन्ति, क्रीडन्ति इति पदं शृणुमः. क्रीडति, बालकः क्रीडति, किन्तु बालकाः क्रीडन्ति इति पदं शृणुमः. किन्तु अत्र भिन्नं पदमस्ति. एतत् पदं किम् इत्युक्ते एतत् पदं संस्कृतभाषायां शत्रुप्रत्ययान्तरूपम् इति वदामः. शत्रुप्रत्ययान्तरूपम् इत्युक्ते तत्र तस्मिन् समये बालकाः सर्वे क्रीडन्तः सन्ति इत्युक्ते एकस्मिन् एव समये कार्यद्वयं कुर्मः चेत् तदा शत्रुप्रत्ययस्य उपयोगं कुर्मः. ऐ एम् ईटिङ्ग् अण्ड् टाकिङ्ग्. तस्मिन् सन्दर्भे अहं खादन्ती वदामि. तत्र पदमस्ति क्रीडन्तः, दट् इस् काल्ड् प्रेसेण्ट् कण्टिन्यूस् टेन्स्. शत्रुप्रत्ययः इत्युक्ते प्रेसेण्ट् कण्टिन्यूस् टेन्स् इति वदामः आङ्ग्लभाषायां. तत्र एकः पाठशाला अस्ति, तत्र केचन छात्राः सन्ति. अधुना ते किं कुर्वन्तः सन्ति? ते सर्वे छात्राः क्रीडन्तः सन्ति. दे आर् प्लेयिङ्ग् इति आवरणे.
एकं प्रश्नम् अस्ति. नौ इफ् दिस् वर् फेमिनैन् वाट् वुड् दट् बि? वुड् बि क्रीडन्ता, लोङ्ता?
काचन
स्त्रीलिङ्गप स्त्रीलिङ्गपदमस्ति चेत् तत्र तत्र क्रीडति, क्रीडन्ती इति रूपं भवति. तत्र बहुवचनरूपं क्रीडत्यः इति भवति. किन्तु अत्र क्रीडन्, क्रीडन् एकः बालकः अस्ति चेत् क्रीडन् भवति. किन्तु बहवः छात्राः सन्ति इति कृत्वा तत्र क्रीडन्तः सन्ति. दे आर् प्लेयिङ्ग्, सम् स्टूडेण्ट्स् आर् प्लेयिङ्ग्.
So there will be a dirghata instead of a visargata, sorry, if they were feminine.
Now, feminine. Strilinga padamasti chet rupani dhinnani bhavanti. Atra chhatraha iti padasya viseshanam kridantaha. Chhatraha kridantaha. Kim kurvantaha? Kridantaha. Chhatraha. Atra. अपि च अत्र प्रथमः बालकः वदति आगच्छन्तु सर्वे अत्र आगच्छन्तु किमर्थम् सः किमर्थं तथा वदति वयं सर्वे मिलित्वा कन्दुकेन क्रीडाम अत्र क्रीडाम तस्य रूपं किम्
वदति
वा
उत्तम उत्तमपुरुषम् अहं
उत्तमपुरुष उत्तमं किन्तु तत्र साधारणतया क्रीडामः इति वदामः किन्तु अत्र क्रीडाम इति दत्तमस्ति किमर्थं तत्र मुद्रणदोषः अस्ति वा न मुद्रणदोषः नास्ति इट्स् नाट् ए प्रिण्ट् मिस्टेक् अत्र क्रीडाम इति पदं वयं साधारणतया शृणुमः लोट् लकार् इति वदामः लोट् लकारे उत्तमपुरुष बहुवचनरूपं क्रीडाम लट् लकाररूपं क्रीडामः लोट् लकारे क्रीडतु क्रीडन्तु तथा वदामः अत्र उत्तमपुरुष बहुवचनरूपं लोट् लकाररूपं क्रीडाम सुहृदम् उद्दिश्य अड्रेसिङ्ग् देयर् हिस् फ्रेण्ड्स् प्रथमः वदति सर्वे अत्र आगच्छन्तु कन्दुकेन क्रीडाम अत्र इतोपि अन्यः विषयः अस्ति कन्दुकं क्रीडाम इति न उक्तमस्ति कन्दुकेन इति दत्तमस्ति भगिनी वदतु रूपं तृतीया तृतीया किमर्थं कन्दुकं क्रीडाम एकवचने इत्युक्ते अत्र कन्दुकः इति पदमस्ति तस्य तृतीयविभक्त्यन्तरूपं कन्दुकेन किन्तु क्रीड् धातुः अकर्मकधातुः इति कृत्वा अत्र कन्दुकेन क्रीडाम कन्दुकं क्रीडाम इति न लिखितमस्ति किमर्थमित्युक्ते क्रीड् धातुः अकर्मकधातुः अतः कर्मपदं न स्वीकरोति अतः कर्मपदमित्युक्ते द्वितीयविभक्त्यन्तं पदं तदर्थमेव अत्र कन्दुकेन क्रीडाम सर्वे आगच्छन्तु अत्र इति सः वदति तदा द्वितीयः वदति भवतु क्रीडाम सः अङ्गीकरोति भवतु भवतु इत्युक्ते ओके लेट्स् प्ले इति द्वितीयः वदति तदा तृतीयः वदति कन्दुकम् अत्र क्षिप कन्दुकम् अत्र क्षिप इति दत्तमस्ति कोऽपि वदति वा क्षिप इत्यस्य रूपं किं उत्तमं तदेव इत्युक्ते तत्र संस्कृतभाषायां क्षिपति अथवा क्षिपते तत्र रूपद्वयमस्ति आत्मनेपदिरूपम् अस्ति परस्मैपदिरूपम् अपि अस्ति क्षिपति इति परस्मैपदिरूपं क्षिपते आत्मनेपदिरूपं कन्दुकम् अत्र क्षिप अत्र क्षिपधातुः सकर्मकधातुः अतः कन्दुकम् अत्र क्षिप क्षिप इति पदं लकारः कः कोऽपि वदति वा लकारः अत्र पदं मध्यमपुरुष एकवचनरूपं मध्यमपुरुष एकवचनरूपं क्षिप इति दत्तमस्ति
लोट्लकार
लोट्लकार उत्तमं कन्दुकम् अत्र क्षिप इति सः तृतीयः वदति तदा चतुर्थः किं वदति तत्र किमर्थं क्षिप्तं तत्र किमर्थं क्षिप्तम् इति वाक्यमस्ति एतत् वाक्यं कर्मणि प्रयोगे अस्ति पासिव् वाय्स् इति वदामः तत्र त्वया किमर्थं क्षिप्तम् इति अर्थः तत्र यद्यपि कर्तृपदं न दत्तमस्ति तत्र त्वया अथवा भवता अथवा भवद्भिः तादृशानि तृतीयान्तरूपाणि तत्र स्वीकर्तव्यानि किमर्थं क्षिप्तं सः वदति इत्युक्ते चतुर्थः किमर्थं तथा पृष्टवान् इत्युक्ते ते सर्वे क्रीडन्तः सन्ति तत्र कन्दुकः अन्यत्र गच्छति अन्यत्र क्षिपति सः सः कन्दुकः अन्यत्र पतति तदर्थं सः वदति तत्र किमर्थं क्षिप्तवान् भवान् भवतु अहं तत्र गत्वा आनयं कन्दुकम् आनयामि अधुना एव अहं तत्र गच्छामि तत्र गत्वा अहं कन्दुकम् आनयामि इति चतुर्थः वदति इत्युक्ते तदा किम् अभवत् कन्दुकः अन्यत्र पतति अतः तादृशरीत्या चतुर्थः वदति तदा सः किं किं श्रुतवान् तत्र एकः दीपः अस्ति दीपः वदति माम् उन्नयन्तु भवन्तः अहमस्मि अल्लाउद्दीनस्य दीपः उन्नयन्तु इति पदमस्ति माम् उन्नयन्तु माम् इत्यस्य रूपं किं भगिनी वदतु
षष्टि
अहं शब्दस्य अस्मत् शब्दस्य द्वितीयाविभक्ति एकवचनं माम् उन्नयन्तु भवन्तः माम् उन्नयन्तु पश्यन्तु अत्र वयं जानीमः उन्नयति इति क्रियापदमस्ति उन्नयति उन्नयति इत्युक्ते तत्र उत् इति उपसर्गः अस्ति नयति इति क्रियापदं नी धातोः रूपं नयति उन्नयति उन्नयति इत्युक्ते उपरि नयति इति अर्थः तस्य पदस्य अर्थः कीदृशानि सुन्दराणि पदानि पश्यन्तु सर्वे संस्कृतभाषायां पदानि कथं निष्पन्नानि भवन्ति कीदृशी सुन्दररीत्या भाषा अस्ति उन्नतिः वयं साधारणतया शृणुमः उन्नतिः इत्युक्ते या स्थितिः अस्ति अस्मान् उपरि नयति सा स्थितिः एव उन्नतिः इति पदमस्ति उन्नतिः एकं पदं क्तिन् क्तिन् प्रत्ययान्तरूपम् इति वदामः उन्नतिः किन्तु अत्र भवन्तः सर्वे माम् उन्नयन्तु इति दीपः वदति अहम् अल्लाउद्दीनस्य दीपः इति सः वदति सः उच्चैः दीपः उच्चैः वदति तद् बालकः किं कृतवन्तः अग्रे पठति अत्र अत्र लक्ष्मीभगिनी अपि च राजीवसिंहमहोदय अरुणा भगिनी पठति वा अरुणा भगिनी भवती पठितुमिच्छति वा
मम पार्श्वे पुस्तकं नास्ति
अस्तु चिन्ता मास्तु लक्ष्मीभगिनी अपि च राजीवसिंहमहोदय अग्रिमं वाक्यं पठतु
चतुर्थः सर्वे अत्र आगच्छन्तु अस्मात् कोऽपि धवनिः आगच्छति
कृपया माम् उन्नयन्तु अहम् अल्लाउद्दीनस्य दीपः भवताम् इष्टपूर्तिं करिष्यामि
किं भवान् अल्लाउद्दीनस्य दीपः यक्षसेवकः भूत्वा प्रकटीभवति
आम् सः एव दीपः अहं भवतां कामनां पूरयिष्यामि कार्याणि करिष्यामि च
तर्हि वयम् उन्नयाम्
अत्र स्थगयतु इदानीं पर्यन्तं किम् अभवत् तत्र अल्लाउद्दीनस्य दीपः उच्चैः वदति माम् उन्नयन्तु इति वदति तदा चतुर्थः बालकः वदति सर्वे अत्र आगच्छन्तु अस्मात् कोऽपि ध्वनिः आगच्छति अस्मात् इति उक्तमस्ति अस्मात् इत्युक्ते कस्मात् कस्मात् अस्मात् अस्मात् इति पदम् अहं शब्दस्य पञ्चमी रूपम् अस्मात् कोऽपि ध्वनिः आगच्छति अस्मात् इत्युक्ते दीपात् तत्र दीपः अस्ति दीपतः ध्वनिः आगच्छति. सः प्रथमतया चतुर्थः शृणोति, शब्दं शृणोति, ध्वनिं शृणोति. श्रुत्वा सः वदति सर्वे अत्र आगच्छन्तु, शृण्वन्तु, तत्र दीपात् बहु ध्वनिः आगच्छति इति सः वदति. सः वदति सर्वे अत्र आगच्छन्तु, तत्र दीपतः कोऽपि ध्वनिः, ध्वनिः इत्युक्ते शब्दः, शब्दं शब्दम् आगच्छति, तदर्थं सर्वे अत्र आगत्य शृण्वन्तु इति चतुर्थः वदति. तदा दीपः किं वदति, कृपया माम् उन्नयन्तु. उपरि उन्नयन्तु इत्युक्ते बहिः आनेतव्यं, बहिः अहम् आगन्तुम् इष्टवान्, माम् उन्नयन्तु. अहम् अल्लाउद्दीनस्य दीपः. साधारणतया अल्लाउद्दीनस्य दीपः किं करोति भगिनी, वदतु. किं करोति लक्ष्मी भगिनी, वदतु. मेजिक् करोति, उत्तमम्. तदेव अत्र उक्तमस्ति, अहम् अल्लाउद्दीनस्य दीपः, भवताम् इष्टापूर्तिं करिष्यामि. इष्टापूर्तिः, इष्टापूर्तिः इत्युक्ते अत्र ऐ विल् ग्राण्ट् युवर् विशस्, भवताम् इष्टापूर्तिं करिष्यामि. करिष्यामि लकारः किं भगिनि, उत्तमपुरुषे एकवचनं लृट्. लृट् इत्युक्ते भविष्यत्कालार्धे. दीपः वदति अहं भवताम् इष्टापूर्तिं करिष्यामि. भवतां रूपं किम्,
द्वितीय एकवचन स्त्रीलिङ्गशब्द
बहुवचनं
न न न न तथा न अत्र भवत् भवताम् इति भवत् भवान् भवान् भवन्तौ भवन्तः तत्र षष्टि बहुवचनं
बहुवचनं
पुंलिङ्ग षष्टि बहुवचनरूपं. तत्र तकारान्तपदमस्ति, तत्र यदि भवन्तः सर्वे करपत्राणि पश्यन्ति चेत्, तत्र सुबन्तकरपत्राणि पश्यन्ति चेत् तत्र भवत् शब्दः अस्ति, तकारान्तशब्दः. तत्र प्रथमाविभक्त्यन्तरूपाणि भवान् भवन्तौ भवन्तः, किन्तु अत्र भवताम् इति दत्तमस्ति, षष्टि बहुवचनम्. अहं किं करोमि, भवताम् इष्टापूर्तिं करिष्यामि. इष्टापूर्तिः इत्युक्ते ऐ विल् फुल्फिल् युवर् विशस्. साधारणतया अलाउद्दीन दीपः तदेव करोति, इष्टापूर्तिं करोमि. अपि च किं भवान् अलाउद्दीनस्य दीपः, सः आश्चर्यं प्रकटीकरोति. प्रथमः अलाउद्दीन दीपं दृष्ट्वा सः वदति किं भवान् अलाउद्दीनस्य दीपः. ओ अस्तु, अहं न जानामि, यश्च सेवकः भूत्वा प्रकटीभवति. अत्र यश्च इति पदमस्ति, यश्च तत्र यः योगः च, तत्र विसर्गसन्धिः इति वदामः, तत्र विसर्गसन्धिः भवति इति कारणतः यः च यश्च. अल्लाउद्दीन दीपः किं करोति इत्युक्ते अन्येषां सेवकः भूत्वा प्रकटीभवति, प्रत्यक्षः भवति. सः सेवकः भूत्वा सर्वाणि कार्याणि अन्येषां कृते करोति. भवान् तादृश अल्लाउद्दीन दीपः वा. ओ अस्तु, सः वदति आम् सः एव दीपः अहम्. अहं भवतां कामनां पूरयिष्यामि, कार्याणि करिष्यामि च. अत्र महोदय वदतु, अत्र पूरयिष्यामि, करिष्यामि, वदतु रूपाणि. राजसिंह महोदय,
भूतकाल
भूतन भविष्यत्कालरूपं
भविष्यत्काले
फ्यूचर् टेन्स्
करोति
उत्तमम् उत्तमम् इत्युक्ते दीपः वदति अहं भवताम् अत्रापि भवतां षष्टि बहुवचनरूपम् एकवचनं किं भवतः साधारणतया वयम् अभ्यासपुस्तकस्य प्रथमे पुटे वयं पठितवन्तः भवतः नाम किं अत्र भवतः इति पदम् एकवचनरूपं किन्तु अत्र भवताम् इति दत्तमस्ति षष्टि बहुवचनरूपम् अहं भवतां कामनां पूरयिष्यामि भवान् यदिच्छति तद् ददामि तत् करोमि आज्ञां ददातु अहं सर्वाणि कार्याणि करिष्यामि इति दीपः वदति तदा द्वितीयः बालकः वदति तर्हि वयम् उन्नयाम उन्नयाम इत्युक्ते उपरि नयाम अत्रापि लोट्लकारः उत्तमपुरुषबहुवचनरूपं वयम् उन्नयाम वयम् इति पदम् उत्तमपुरुषकर्तृपदम् अपि च यदि बहुवचनं किन्तु उन्नयामः इति अस्ति चेत् तत्र वर्तमानकालरूपं किन्तु अत्र उन्नयामः इति पदं नास्ति अत्र किमस्ति केवलम् उन्नयाम लोट्लकारः अस्ति इति कृत्वा अत्र उन्नयाम इति द्वितीयः वदति उत्तमम् अग्रिमम् अग्रे पठतु भगिनि लक्ष्मी भगिनी अपि च
नमो भवद्गृह आदेशः भवतु आदेशः भवतु अहं किं कुर्याम्
नमो भवदेह आदेशः भवतु ओ सोरि मम विद्यालये गणितकार्यम् अधिकं भवति कक्षाकार्य गृहकार्ययौ समाप्तिः एव नास्ति
किम् अहं गणितस्य कार्यं कुर्याम्
गणितकार्येण सह समाजविज्ञानकार्यम् अपि करोतु भवान्
यथा भवतः आज्ञा
मम कृते भोजनम् आवश्यकम्
आज्ञां ददातु क्षणार्थेन आनेष्यामि
मम कृते विविधाः उत्कृष्टाः चाकलेहः अनेकविधानि मधुरखाद्यानि च
सर्वे भवान् लिखित्वा ददातु अहम् आनेष्यामि चतुर्थम् उद्दिश्य भवतः कृते किम् आवश्यकम्
अत्र स्थगयतु किञ्चित् अत्र किञ्चित् पश्यामः अत्र किं वदति भवतां दीपः वदति अहं भवतां कामनां पूरयिष्यामि सर्वाणि कार्याणि करिष्यामि इति दीपः वदति तदा द्वितीयः तर्हि दीपम् उपरि नयाम इति सः वदति अत्र पश्यन्तु दीपः अधुना किं करोति नमस्कारं करोति किं करोति कथं करोति नमो भवद्भ्यः इति दीपः वदति नमो भवद्भ्यः तत्रापि सन्धिः अस्ति विसर्गसन्धिः इति वदामः तत्र नमः भवद्भ्यः भवद्भ्यः इति पदं चतुर्थी विभक्ति बहुवचनान्तरूपम् यदा कदापि नमः इति पदं योजयामश्चेत् तत्र चतुर्थी विभक्तिः एव भवति इति अस्माभिः स्मर्तव्यं वि नीड् टु रिमेम्बर् नमः इति पदमस्ति चेत् तत्र चतुर्थी विभक्तेः उपयोगः एव करणीयः नमो भवद्भ्यः दीपः वदति आदेशः भवतु अहं किं कुर्याम् आदेशः इत्युक्ते आज्ञा अथवा शासनम् भवान् शासनं करोतु अहं किं करवाणि इति दीपः वदति कुर्याम् इति पदम् अस्माकं कृते नूतनं पदं कोऽपि वक्तुं शक्नोति वा अत्र कुर्याम् इति पदं
विधिलिङ्ग् विधिलिङ्ग्
भगिनी जानाति उत्तमं विधिलिङ्ग् उत्तमं इत्युक्ते संस्कृतभाषायां दशलकाराः सन्ति. साधारणतया वयं अग्रे गत्वा विधिलिङ्गलकारस्य विषये पठिष्यामः. इदानीं पर्यन्तं वयं न पठितवन्तः विधिलिङ्गलकार इति वदामः. विध्यर्थे सम्भावनार्थे तस्य उपयोगं कुर्मः. क्रु क्रू धातोः रूपं लट्लकाररूपं करोति, किन्तु क्रू धातोः विधिलिङ्गलकाररूपाणि कुर्यात् कुर्याताम् कुर्युः कुर्याः कुर्यातम् कुर्यात कुर्याम् कुर्याव कुर्यामः तादृशरूपाणि भवन्ति. अत्र सः किं वदति, अहं किं कुर्याम्, वाट् केन् ऐ डू फर् यू इति अर्थः. वाट् शुड् ऐ डू फर् यू, अहं किं कुर्याम्, कुर्याम् इति पदं क्रू धातोः विधिलिङ्गलकार उत्तमपुरुष एकवचनरूपं. दीपः वदति मम विद्यालये, बालकः वदति तृतीयः बालकः, मम विद्यालये गणितकार्यम् अधिकं भवति. मम कार्यालये गणित मम विद्यालये गणितकार्यम् अधिकमस्ति, कक्षा गृहकार्ययोः समाप्तिः एव नास्ति. तत्र कोऽपि वदति वा कक्षा गृहकार्ययोः तस्य रूपं किम्? अत्र कक्षा द्विवचनरूपं द्विवचनरूपम् इत्युक्ते कक्ष्याकार्यं गृहकार्यं कक्ष्याकार्यं गृहकार्यम् इत्युक्ते तत्र द्वन्द्वसमासः अस्ति. इत्युक्ते तत्र समस्तपदमस्ति कक्ष्याकार्यं. सः बालकः दुःखम् अनुभवति, किमर्थं चेत् तस्य कृते बहु कार्यम् अस्ति पाठशालायां. विद्यालये मम कृते बहु गणितकार्यम् अधिकमस्ति, कक्ष्यागृहकार्ययोः समाप्तिः एव नास्ति. तदर्थं तदा दीपः वदति, किमहं भवतः कृते गणितस्य कार्यं कुर्याम्, केन् ऐ डू युवर् मेथ् वर्क् फर् यू इति दीपः वदति. किम् अहं गणितस्य कार्यं कुर्याम्? तदा सः वदति, गणितकार्येण सह समाजविज्ञानकार्यम् अपि करोतु भवान्. इत्युक्ते न केवलं गणितकार्यं, समाजविज्ञानकार्यमपि करोतु. इत्युक्ते सैन्स् होम्वर्क् अपि करोतु इति सः वदति. तदा दीपः वदति, यथा यथा भवतः आज्ञा इति वदति. तदा द्वितीयः वदति, एकः बालकः गृहकार्यस्य विषये पृष्टवान्, अन्यः बालकः मम कृते भोजनम् आवश्यकम्. मम कृते भोजनम् आवश्यकम् इति द्वितीयः वदति. तदा दीपः वदति, आज्ञां ददातु, क्षणार्थेन आनेष्यामि. आनेष्यामि कोऽपि वदति वा तत्र रूपं किम्?
उत्तमपुरुष एकवचनम्
ृट् ऋट् भविष्यत्कालरूपम् आनयति. इदानीं पर्यन्तं वयं लट्लकाररूपम् आनयति पश्यामः, किन्तु अत्र आनेष्यामि, यथा करिष्यामि तथा एव अत्र लृट् लकाररूपं दत्तमस्ति. दीपः वदति, शास्त्रं करोतु, अहं क्षणार्धेन आनेष्यामि, जस्ट् इन् ए मोमेण्ट् ऐल् ब्रिङ्ग् इट्. क्षणार्धेन क्षणार्थः अत्र क्षणार्थेन आनेष्यामि. इतोपि किं कर्तव्यं मया सः पृच्छति. तदा द्वितीयः वदति, मम कृते विविधाः उत्कृष्टाः चाकलेहाः अनेकविधानि मधुरखाद्यानि च आनयतु इति सः पृच्छति. इत्युक्ते द्वितीयस्य कृते भोजनम् आवश्यकम्, अपि च विविधाः उत्कृष्टाः. उत्कृष्टाः इत्युक्ते कोऽपि वदति वा?
बेस्ट् वन्
बेस्ट् वन्स् एक्स्ट्राआर्डिनरी extraordinary इति वदामः, excellent तादृशरीत्या अत्र. मम कृते उत्कृष्टाः चाकलेहाः, अनेकविधानि मधुरखाद्यानि. खाद्यम् इति पदमस्ति, न्यत् इति प्रत्ययः इति वदामः. खाद्य धातोः रूपं, किन्तु कर्मण्यर्थे तस्य उपयोगः भवति. खाद्यं खाद्यानि, कीदृशानि खाद्यानि? मधुरखाद्यानि, डेसर्ट्स्. मधुरखाद्यम् इत्युक्ते डेसर्ट्स्. अनेकविधानि मधुरखाद्यानि च आनयतु इति आज्ञां ददाति. तदा दीपः वदति, सर्वं भवान् लिखित्वा ददातु. लिखित्वा, क्त्वा प्रत्ययान्तरूपं, प्रथमतया सर्वम् एकस्मिन् कागदे लिखतु, तदनन्तरं ददातु. एकमेकं कृत्वा मा वदतु, सर्वाणि कार्याणि कागदे लिखित्वा ददातु, अहं सर्वम् आनेष्यामि इति सः वदति. लिखित्वा कीदृशं रूपं? क्त्वा प्रत्ययान्तरूपं, क्त्वा प्रत्ययान्तरूपं लिखित्वा. अपि च अत्र चतुर्थम् उद्दिश्य इति पदमस्ति, कोऽपि वदति वा उद्दिश्य तस्य रूपं किम्? उद्दिश्य, उद्दिश्य इति पदं ल्यबन्तरूपं, ल्यप् प्रत्ययान्तरूपं. वयं पठितवन्तः तत्र क्त्वान्तरूपं, यदा क्त्वान्तरूपं साधारणरूपं, किन्तु उपसर्गः अस्ति चेत् ल्यबन्तरूपं सिध्यति. अत्र उद्दिश्य इति पदम् उत् उपसर्गपूर्वकः, दिशति इति रूपं, दिशति इति क्रियापदम्, उत् योगः दिश्, दिश् धातुः, किन्तु अत्र ल्यबन्तरूपम् अस्ति. चतुर्थम् उद्दिश्य, दीपः वदति भवतः कृते किम् आवश्यकम्? इदानीं पर्यन्तं प्रथमः किञ्चित् उक्तवान्, द्वितीयः उक्तवान्, तृतीयः अपि उक्तवान्, चतुर्थः अधुना किं वदति इति द्रष्टव्यम्. यदि भवन्तः इच्छन्ति चेत् समापयामः, नो चेत् अग्रिमे सप्ताहे पुनः एकवारं मिलित्वा एतां कथां पूरयिष्यामः. भवन्तः किम् इच्छन्ति? अधुना समापयामः वा, नो चेत् अग्रिमे सप्ताहे पठामः वा? अग्रिमे सप्ताहे पुनः एकवारं मिलित्वा एतां कथां समापयिष्यामः. अधुना अत्र स्थगयाम. सर्वेषां धन्यवादः, नमस्कारः.
नमस्कारः भगिनी, धन्यवादः. शुभरात्रिः.
धन्यवादः.
शुभरात्रिः.
धन्यवादः.